एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा अद्यतः काष्ठमण्डपे सगरमाथा संवादः आयोज्यमानो वर्तते अद्यतः अस्यैव ज्येष्ठमासस्य चतुर्थं दिवसं यावत् आयोक्ष्यमाणे सगरमाथा संवाद कार्यक्रमे सहभागितायै विभिन्नानां द्वादश देशानां प्रतिनिधयः काष्ठमण्डपे सम्प्राप्ताः सन्ति सगरमाथा संवादस्य प्रथमं संस्करणं जलवायु परिवर्तनं हिमालयानां मानवानां च भविष्यम् इति समाघोषेण विमर्शनं वार्ताश्च षट्सु विषयेषु केन्द्रितं भविष्यतीति वन वातावरण मन्त्रालयस्य सहसचिव सगरमाथा संवाद सचिवालयस्य सदस्य सचिवश्च डा महेश्वर ढकाल असूचयत् संवादस्य प्रथमे दिवसे उद्घाटन समारोहे आमन्त्रिताः विशिष्टाः वैदेशिकाः स्वदेशीयाश्च अतिथयः सहभागिनो भविष्यन्ति समारोहे प्रधानमन्त्रिणः केपी शर्मा ओलिनः सम्बोधनस्य कार्यक्रमः निश्चितोऽस्ति एवमेव कार्यक्रमे संवाद सम्बद्धं परिचययुक्तं दृश्यचित्रं प्रस्तुष्यते समारोहे चीन भारतयोः प्रतिनिधिमण्डलस्य नेतारः कोप 29 अध्यक्षस्य अजरबैजान देशस्य राष्ट्रपतेश्च जलवायु विषये सम्बद्धः प्रतिनिधिश्च सम्बोधनं करिष्यन्ति इति ज्ञापितं वर्तते संवादे संयुक्त राष्ट्रसंघस्य महासचिवस्य दृश्य सन्देशोऽपि प्रस्तुष्यते प्रधानमन्त्री केपी शर्मा ओली निगदति सोलुखुम्बु जनपदस्य थोमे प्रभृतिषु क्षेत्रेषु जलवायु परिवर्तनस्य कारणेन आनीतानां समस्यानां सगरमाथा संवादस्य माध्यमेन सम्बोधनं भविष्यति थामेस्थाने सम्पन्नस्य आरोहिणां सम्मेलनस्य जलवायु संवादस्य च घोषणापत्रं गृह्णन् प्रधानमन्त्री ओली हिमालयानां प्रारम्भस्थलं प्राप्य कार्यक्रमाणां सम्पादनं समस्यायाः अन्वेषणञ्च प्रभावकारि कार्यमस्ति इति उदैरयत् अद्य शुक्रवासरतः दिनत्रयं यावत् नेपाल सर्वकारेण आयोज्यमानस्य सगरमाथा संवादस्य पूर्वसन्ध्यायां प्रधानमन्त्रिणा ओलिना हिमालयेभ्य तराई क्षेत्रं यावत् जलवायु न्यायस्य प्रदानस्य कृते सर्वकारः दृढोऽस्ति इति प्रतिबद्धतां व्यक्तवान् अधिकार दुरूपयोगानुसन्धानायोगेन टेरामक्स नाम्नः दूरसंचार सम्बद्धस्य उपकरणस्य क्रयण प्रक्रियायाम् अनियमिततायाः आरोपे पूर्व सूचना संचार मन्त्रिणा मोहनबहादुर बस्नेत इत्यनेन सहितानां 16 जनानां विरूद्धे ह्य विशेष न्यायालये आरोपपत्रं पञ्जीकारितमस्ति अधिकार दुरूपयोगानुसन्धानायोगेन पूर्व मन्त्रिणा सहैव नेपाल दूरसंचार प्राधिकरणस्य तात्कालिकाध्यक्षयोः दिगम्बर झा पुरूषोत्तम खनालयोः प्राधिकरणस्य तात्कालिक सदस्ययोः धनराज गेवाली टीका प्रसाद उप्रेति इत्यनयोः प्राधिकरणस्य निर्देशकस्य विजय कुमार राय इत्यस्य उपनिर्देशकानां रेवती राम पन्थ सुरेश बस्नेत हिरण्य प्रसाद बस्ताकोटी अच्युतानन्द मिश्राणाञ्च विरूद्धे भ्रष्टाचाराभियोगस्य आरोपपत्र पञ्जीकारितमस्ति तथैव प्राधिकरणस्य तात्कालिक निर्देशकयोः सुरेन्द्रलाल हाडा दीपेश आचार्ययोः उपनिर्देशकस्य सन्दीप अधिकारिणः परामर्शदातृ संस्थायाः प्रमुख कार्यकारिधिकृतस्य जमल अनौती इत्यस्य एतस्याः एव संस्थायाः स्थानीय प्रतिनिधिः दिलीप कुमार गुरूङ इत्यस्य निर्देशकस्य तेज प्रसाद खरेल इत्यस्य च विरूद्धे भ्रष्टाचाराभियोगस्य आरोपपत्रं पञ्जीकारितमस्ति इति आयोगस्य प्रवक्ता राजेन्द्र कुमार पौडेलः असूचयत् एतस्मिन् प्रकरणे आयोगेन तात्कालिकेन संचार मन्त्रिणा सहितेभ्यः 16 जनेभ्य 3 अब्जानि 21 कोटयः 83 लक्षाणि च रूप्यकाणि हानिवित्तं निर्धार्य याचितानि सन्ति अत्रान्तरे पूर्वमन्त्रिणः प्रतिनिधिसभायाः सदस्यस्य च मोहनबहादुर बस्नेत इत्यस्य विरूद्धे भ्रष्टाचाराभियोगस्य आरोपपत्रस्य पञ्जीकरणानन्तरम् असौ प्रतिनिधिसभा सदस्य पदात् निलम्बितो वर्तते सांसदस्य बस्नेत इत्यस्य विरूद्धे भ्रष्टाचारस्य आरोपपत्रं पञ्जीकारितमस्तीत्यतः प्रतिनिधिसभायाः नियमावल्याः विधेश्च अनुसारेण असौ स्वतः एव गत ह्यस्तनात् दिवसात् सांसद पदात् निलम्बितः अस्ति इति संसद सचिवालयेन ज्ञापितं वर्तते संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति नेपाल राष्ट्र कोषागारस्य अधिशासक पदे नियुक्ति शीघ्रमेव भविष्यति मन्त्री परिषद उपवेशस्य निर्णयान् सार्वजनिक कर्तुम् संचार सूचना प्रविधि मन्त्रालय ह्य आयोजिते पत्रकार सम्मेलने संचार मन्त्री गुरूङ नेपाल राष्ट्र कोषागारस्य अधिशासक पदे नियुक्त्यर्थम् इतः पूर्वम् संघटिताया समितेः विघटनानन्तरम् त्रिसदस्यात्मिका समिति पुनः संघटिता अस्ति। त्यतः आगामिषु आसन्न चतुर्षु दिवसेषु अधिशासक पदस्य नियुक्तिः भविष्यति इति विश्वासम् अभिव्यनक्। संचार मन्त्री गुरूङ उपवेशेन वर्षाणाम् कारणेन संकटग्रस्तस्य कञ्चनपुर जनपदस्य भीमदत्त नगरपालिकायाः एकादश द्वादश त्रयोदश ओडा क्षेत्राणाम् दोधारा चाँदनी नगरपालिकायाः तृतीयाश्रम नवम दशम ओडा क्षेत्राणाम् च मासत्रयस्य कृते विपद संकट युत क्षेत्राणाम् घोषणायाः निर्णयो विहितोऽस्ति इति अज्ञापयत्। एवमेव सर्वकारेण संक्रमण कालिक न्याय सम्बद्धे आयोग द्वये पदाधिकारिणां नियुक्तिः कृता वर्तते। सर्वकारेण संघटितायाः परामर्श समित्या परामर्शानुसारेण मन्त्री परिषद उपवेशेन आयोगद्वयेऽपि प्रत्यायोगम् पञ्चानां सदस्यानां नियुक्तिं कर्तुं निर्णीतमस्ति इति संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ असूचयत्। मन्त्री परिषद उपवेशेन संक्रमण कालिक न्याय सम्बद्धस्य सत्यनिरूपण मेला आयोगस्य अध्यक्ष पदे उच्च न्यायालयस्य पूर्व न्यायाधीश महेश थापा नियुक्तोऽस्ति चेत् विलोपित जनानाम् अन्वेषण आयोगस्य अध्यक्ष पदे पूर्व मुख्य सचिव लीलादेवी गर्तुला नियुक्ता अस्ति इति च सर्वकारस्य प्रवक्ता मन्त्री गुरूङ असूचयत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना नेपाल राष्ट्र कोषस्य रिक्ते अधिशासक पदे व्यक्तिगत निकटस्थ सम्बद्धस्य अपेक्षयापि योग्यताक्रमस्य आधारेण क्षमतावत व्यक्तिर्नियुक्तेः पक्षे आत्मना स्थितमस्ति इति उक्तम् वर्तते। काष्ठमण्डपे ह्य आयोजिते एकस्मिन् कार्यक्रमे प्रधानमन्त्री ओली रिक्ताधिशासक पदे सामर्थ्यवत जनस्य आनयनस्य पक्षे आत्मना स्थितमस्ति इति प्रावोचत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशेऽपि आगामिनः आर्थिकवर्षस्य कृते प्रस्तावितस्य विनियोजन विधेयकस्य सिद्धान्तान् प्राथमिकतां च आधृत्य विमृष्टम् वर्तते। ह्यस्तने विमर्शने सांसदः डाक्टर प्रकाश शरण महत सूर्य थापा वर्षमान पुन शिव नेपाली रोशन कार्की शेरबहादुर कुंवर सुशीला श्रेष्ठ लालवीर चौधरी रमा कोइराला पौडेल सुनिता बराल हितबहादुर तामाङ तोसिमा कार्की ध्रुवबहादुर प्रधान बिना कुमारी थनैत लालप्रसाद सावा लिम्बु विमला सुवेदी च स्वकीयान् विचारान् व्यक्तवन्तः। तत्पूर्वं प्रतिनिधिसभायाः ह्यस्तनोपवेशस्य विशेष समये नेपाली कांग्रेस दलस्य सांसदः रामहरि खतिवडा नेकपा एमाले दलस्य सांसदः ईश्वर बहादुर रिजालः नेकपा माओवादी केन्द्रस्य सांसदः पूर्णबहादुर घर्ती राजोपा दलस्य सांसदः हरि ढकालस्य सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। उपवेश्य अन्तर्राष्ट्रिय सम्बन्ध पर्यटन समितेः विधि न्याय मानवाधिकार समितेश्च वार्षिकं प्रतिवेदनं प्रस्तुतं वर्तते। इति समाचारः।